अथ अष्टमोऽध्यायः प्रथमः पादः सर्वस्य द्वे तस्य परमां प्रेडितम् अनुदात्तं च नित्यवीप्सयोः परेर्वर्जने प्रसमुपोदः पादपूरणे उपर्यध्यधसः सामीप्ये वाक्यादे रामन्त्रितस्यासूया सम्मतिकोपकुत्सन भर्त्सनेषु एकं बहुव्रीहिवत् आबाधे च कर्मधारयवदुत्तरेषु प्रकारे गुणवचनस्य अकृच्छे प्रियसुखयोरन्यतरस्याम् यथा स्वे यथा यथम् द्वन्द्वम् रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु पदस्य पदात् अनुदात्तम् सर्वमपादादौ आमन्त्रितस्य च युष्मदस्मदोष्षष्ठी चतुर्थी द्वितीयास्थयोर्वान्नावौ बहुवचनस्य वस्नसौ तेमयावेकवचनस्य त्वामौ द्वितीयायाः न च वाहाहैव युक्ते पश्यार्थैश्चानालोचने सपूर्वायाः प्रथमाया विभाषा तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययो तिङ्गतिङः न लुट् निपातैर्यद्यदि हन्त कुविन्नेच्चेच्चङ्कच्चिद्यत्र युक्तम् नः प्रत्यारम्भे सत्यम् प्रश्ने अङ्गाप्रातिलोम्ये हि च छन्दस्यनेकमपि साकाङ्क्षम् यावद्यथाभ्याम् पूजायाम् नानन्तरम् उपसर्गव्यपेतम् च तु पश्य पश्यताहैः पूजायाम् अहो च शेषे विभाषा पुरा च परीप्सायाम् नन्मित्यनुज्ञैषणायाम् किङ्क्रियाप्रश्नेनुपसर्गमप्रतिषिद्धम् लोपे विभाषा एहि मन्ये प्रहासे लृट् जात्वपूर्वम् किं वृत्तम् च चिदुत्तरम् आहो उताहो चानन्तरम् शेषे विभाषा गत्यर्थलोटालृण्न चेत्कारकम् सर्वान्यत् लोट् च विभाषितम् सोपसर्गमनुत्तमम् हन्त च आम एकान्तरमामन्त्रितमनन्तिके यद्धितु परम् छन्दसि च न चिदिव गोत्रादितद्धिताम् व्रीडितेष्वगतेः चादिषु च चा वा योगे प्रथमा हेतिक्षियायाम् अहेतिविनियोगे च चाहलोप एवेत्यवधारणम् चादिलोपे विभाषा वैवावेति च छन्दसि एकान्याभ्याम् समर्थाभ्याम् यद्वृत्तान्नित्यम् पूजनात्पूजितमनुदात्तम् काष्ठादिभ्यः सगतिरपि तिङ् कुत्सने च सुप्यगोत्रादौ गतिर्गतौ तिङि चोदात्तवति आमन्त्रितम् पूर्वमविद्यमानवत् नामन्त्रिते समानाधिकरणे सामान्यवचनम् विभाषितम् विशेषवचने इति प्रथमः पादः।